ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र रूपस्य अव्याप्य वृत्तित्वं तस्मिन् विषये वयं स्वरूपमहोदयस्य करपत्रं पठन्तः स्मः तत्र अन्तिमभागः तत्र तस्य समीपम् वयं स्मः तत्र व्याप्य व्यापकः इति तत्र व्याप्यः व्यापकः इति तत्र वयं गतवर्गे पठितवन्तः तत्र व्याप्यः नाम न्यूनदेशवृत्ति वृत्तिः अपि तत्र व्यापकः नाम अधिकदेशवृत्तिः तत्र उदाहरणार्थं तत्र पृथ्वीत्वम् अपि तत्र द्रव्यत्वं तत्र अस्तु तत्र चन्द्रमती भगिनी तत्र पृथ्वीत्वं
द्रव्यत्वम् अधिकदेशवृत्तिः पृथ्वीत्वं न्यूनदेशवृत्तिः
तर्हि कः व्याप्यः कः व्यापकः तत्र
पृथ्वी व्याप्यः द्रव्यं व्यापकः
हा समीचीनं तत्र पृथ्वीत्वं व्याप्यं द्रव्यत्वं व्यापकम् इति भवति समीचीनम् इति परिचितः अर्थः किन्तु भवान् गतवर्गे पठितवन्तः तत्र व्यापकः इति तस्य अपरिचित अर्थः अपि अस्ति तत्र न्यायशास्त्रस्य शैली तत्र परिष्कृत अर्थः इति नाम तत्र प्रिसैज् मीनिङ्ग् इति अतः तत्र तस्य विवरणं गतवर्गे अन्ते पठितवन्तः अतः तत्र गन्धः पृथ्वीत्वयोः तत्र उदाहरणं स्वीकृत्य गन्धः पृथ्वीत्व व्यापकः तत्र नाम पूर्वं वयं पठितवन्तः तत्र
न्यून अनतिरिक्तवृत्तित्वं
हा इति उत्तमं भगिनि अन्यून अनतिरिक्तवृत्तित्वम् इति वयं पठितवन्तः तत्र गन्धः पृथ्वीत्वयोः मध्ये तादृशी स्थितिः अस्ति हा इदानीं तत्र अग्रे सरामः तत्र अपरिचित अर्थः तत्र अन्ते पठितवन्तः तथा आरभ्य पठामः तर्हि तत्र तर्हि भवती एव आरम्भं करोति वा तत्र अधुना गन्धः इति
अधुना गन्धपृथित्वयोः उदाहरणं स्वीकुर्मः गन्धः पृथित्वव्यापकः कथम् इत्युक्ते पृथित्वं पृथित्वसमानाधिकरण अत्यन्त अभाव अप्रतियोगी भवति गन्धः पृथित्वस्य च समानाधिकरणम् इत्युक्ते पृथित्व अधिकरणवृत्ति खण्डश पश्येम पृथित्वस्य अधिकरणं पृथ्वी तद्वृत्ति पृथित्व अधिकरणवृत्ति वृत्तिः यः अत्यन्त अभावः नाम पृथ्व्यां विद्यमानः यः कोऽपि अत्यन्त अभावः अस्माभिः स्वीकर्तव्यः पृथ्व्यां विद्यमानाः अत्यन्त अभावः इत्यनेन गन्धभावं स्वीकुर्मः स्वीकर्तुं न शक्नुमः तदतिरिच्य किमपि स्वीकर्तव्यं तर्हि शीतस्पर्शभावं स्वीकुर्मः अत्र पृथ्वीत्व अधिकरणवृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्श अत्यन्ताभावः भवतु तत्प्रतियोगित्वं
तद् अप्रतियोगित्वम्
इत्युक्ते शीतस्पर्शात्यन्ताभावस्य अप्रतियोगित्वं तच्च गन्धे अस्ति यतोहि शीतस्पर्शात्यन्त अभावस्य प्रतियोगी भवति शीतस्पर्शः न तु गन्धः अतः गन्धः शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी भवति तर्हि गन्धे पृथित्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् अस्ति अधुना गन्ध प्रतियोगित्वयोः उदाहरणं पृथित्वयोः उदाहरणं स्वीकुर्मः अस्तु गन्ध पृथित्वयोः उदाहरणं वयं स्वीकुर्मः. गन्धः पृथित्वव्यापकः, गन्ध पृथित्वव्यापकः. अन्यूनानतिरिक्त वृत्तित्वं गन्धपृथित्वयोः भवति इति मध्ये अस्ति इति समान अधिकरणं, तदेव
समानाधिकरणम् इति अस्ति, किन्तु अधिकमपि अस्ति, किन्तु परिचितार्थः चेत् वयं जानीमः, पूर्वमेव पठितवन्तः. किन्तु इदानीं तत्र अपरिचितार्थः, अपरिचितार्थः इति वयं तत्र अत्र अस्ति खलु, तत्र एतद् हा एतत् एतत् यदस्ति
तत् समानाधिकरण अत्यन्त अभाव अप्रतियोगित्व.
हा किन्तु व्यापकत्वस्य द्वितीय अर्थः अस्ति तत् समानाधिकरण अत्यन्ताभाव अप्रत्योगित्वम् इति गतवर्गे पठितवन्तः खलु. द्वितीय अर्थः व्यापकत्वस्य
तत् समानार्थः तथैव व्यापकत्वम् इत्यस्यापि अर्थद्वयं, व्यापकत्वस्य एकः अर्थः अधिकदेशवृत्तित्वम् इति अस्माकं परिचितः अर्थः. यथा द्रव्यत्वं पृथित्वस्य व्यापकं, यतोहि पृथित्वस्य अपेक्षया द्रव्यत्वम् अधिकदेशे अस्ति, किन्तु व्यापकत्वस्य द्वितीयस्य द्वितीयः अर्थः तत्समानाधिकरण अत्यन्त अभाव अप्रतियोगित्वम्
इति अपरिचित अर्थः. परिचित अर्थः अस्ति अधिकदेशवृत्तित्वं,
न्यूनदेशित
अर्थः अस्ति, अपरिचित अर्थः अस्ति
तत्समानाधिकरण भाव अप्रतियोगित्वम्
इति. तर्हि तद् अत्र सङ्गच्छते न वा इति प्रश्नः. नाम गन्धः पृथ्वीत्वव्यापकः इति वदामश्चेत् परिचितार्थे अर्थः सङ्गच्छति, किन्तु अपरिचित अर्थः नाम तत्र पृथ्वीत्वसमानाधिकरण अत्यन्ताभाव अप्रतियोगी गन्धः भवति न वा इति प्रश्नः. अस्तु, तर्हि तत्र एतावत् पठतु भगिनि, तत्र एतावत् पठतु, तत्र वृत्तिः तावत्पर्यन्तम् एकवारं पठतु.
अधुना गन्ध पृथित्वयोः उदाहरणं स्वीकुर्मः. गन्धः पृथित्वव्यापकः, गन्धः पृथित्वव्यापकः कथम् इत्युक्ते पृथित्व समानाधिकरण अत्यन्ताभाव अप्रतियोगी भवति गन्धः, तदेव द्वितीय अर्थः वयम् इदानीं पश्यामः.
गन्धः यत् पूर्वं तत्र उक्तम् अत्र सङ्गच्छते न वा इति वयं पश्यामः.
व्यापकः अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वं पूर्वं दृष्टवन्तः, इदानीं वयं पश्येम पृथित्वसमानाधिकरण अत्यन्ताभाव अप्रतियोगी भवति गन्धः इति.
पृथित्वव्यापकः अस्ति वा इति पश्येम.
पृथित्वस्य च समानाधिकरणम् इत्युक्ते पृथित्व अधिकरणवृत्ति
इत्युक्ते किम्? पृथ्वीत्वसमानाधिकरणम् इत्युक्ते अर्थः कः?
गन्धस्य अपि
गन्धः इति अस्तु, प्रथमतया तत्र समान पृथ्वीत्वसमानाधिकरणम् इत्युक्ते किं भवति?
अधिकरणवृत्तित्वं वृत्त्यां
नाम पृथ्वीत्वस्य च समानाधिकरणम् इत्युक्ते अर्थः कः?
पृथ्वीत्वसमानाधिकरणं पृथ्व्यामेव वर्तते.
पृथ्वीत्वस्य अधिकरणं किम् अस्ति?
पृथ्वी.
पृथ्वी, समीचीनं. हा, अतः पृथ्वीत्वस्य समानाधिकरणम् इति कोऽपि पदार्थः अस्ति, वयं वदामः अस्तु एतस्य पदार्थस्य समानाधिकरणम् अस्ति, पृथ्वीत्वस्य समानाधिकरणम् अस्ति इति वदामश्चेत् तदा किं वक्तुम् इच्छामः? सः पदार्थः कुत्र वर्तते इति वक्तुम् इच्छामः?
पृथ्व्यां.
पृथिव्याम् अस्ति खलु, यतोहि यत् यदि कोऽपि पदार्थः अस्ति तस्य पदार्थस्य पृथ्वीत्वसमानाधिकरणम् अस्ति इति वदामः, तर्हि वयं वदामः अस्तु पृथ्वीत्वं कुत्र अस्ति तत्र एव एषः पदार्थः अपि अस्ति खलु. हा, नाम समान पृथ्वीत्वस्य च समानाधिकरणम्
विद्यमानमस्ति.
हा, पृथ्वीत्व अधिकरणवृत्तिः नाम पृथ्वीत्वस्य अधिकरणे तस्य वृत्तिः अस्ति. वृत्तिः नाम तद्वर्तते. कुत्र वर्तते?
पृथ्व्यां वर्तते.
हा, यतोहि पृथ्वी एव
अधिकरणस्य
अधिकरणम्. उत्तमं भगिनि. हा, समीचीनम्. अस्तु, अग्रे अन्य कोऽपि कुर्यात्. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीम् अग्रे तत्र योगेन्द्रमहोदय अग्रे पठति वा?
पठामि. खण्डशः पश्येम पृथ्वीत्वस्य अधिकरणं पृथिवी तदवृत्तिः पृथिवीत्वाधिकरणवृत्तिः यः अत्यन्ताभावः नाम
पृथिव्यापर्यन्तं तावत्पर्यन्तम् अर्थः अथवा एकवारं पठित्वा वदति वा महोदय किम्?
तावदेव पठामि. खण्डशः पश्येम पृथ्वीत्वस्य अधिकरणं पृथ्वी
पृथ्वी पृथ्वीत्वस्य अधिकरणं पृथ्वी
पृथ्वी तदवृत्तिः
तदवृत्तिः न तद्वृत्तिः
तद्वृत्तिः पृथ्वीत्वाधिकरणवृत्तिः.
तद् इत्युक्ते किमस्ति?
पृथ्वी पृथ्वीत्व अधिकरणवृत्तिः.
तद् नाम तद् इत्युक्ते अर्थः कः?
पृथ्वीत्व प्रायः पृथ्वीत्व अधिकरणवृत्तिः
न तद् इत्युक्ते तद् वृत्तिः इत्युक्ते पृथ्वीत्व अधिकरणवृत्तिः, किन्तु तद् इत्युक्ते
पृथ्वीत्वं
न तद् इत्युक्ते अत्र यत् पूर्ववाक्ये आसीत् पूर्ववाक्ये पृथ्वीत्वस्य अधिकरणम्, अतः तद् इत्युक्ते पृथ्वीत्वस्य अधिकरणं पृथ्वीत्व अधिकरणम्, अतः एव तद् योगः वृत्ति नाम पृथ्वीत्व अधिकरणवृत्तिः इति अस्ति खलु.
पृथ्वीत्व अधिकरणवृत्तिः
तद् इत्युक्ते पृथ्वीत्व अधिकरण तद् वृत्तिः नाम पृथ्वीत्व अधिकरणवृत्तिः. अवगतम्?
तावत्पर्यन्तम् अवगच्छामि.
इदानीं तत्र तद् पृथ्वीत्व अधिकरणवृत्तिः इत्युक्ते कः? यः
यः अत्यन्ताभावः.
हा, नाम अत्र वयं व्यापकः इति पदस्य अर्थः कः इति ज्ञातुम् इच्छामः खलु. तत्र व्यापकः गन्धः पृथ्वीत्वव्यापकः भवति न वा इति अस्माकम् इच्छा. अत्र व्यापकः इति परिचितः अर्थः नास्ति, अपरिचितः अर्थः अस्ति. तर्हि व्यापकः नाम किम्? व्यापकः नाम पृथ्वीत्वसमानाधिकरणसमानाधिकरणम्
अत्यन्ताभाव
समानाधिकरण अत्यन्ताभाव अप्रतियोगी इति. अतः तत्र एकमेवं तत्र एकम् एकं तत्र अवगत्य अग्रे सर्तुम् इच्छामः. तत्र पृथ्वीत्वसमानाधिकरणं नाम किमस्ति, कुत्र वर्तते?
तत्र अधिकरणं समानमस्ति इति.
हा, अत्र तर्हि कुत्र अस्ति अधिकरणं? किम् अस्ति पृथ्वीत्वस्य अधिकरणं?
पृथ्वी अस्ति.
पृथ्वी अस्ति. तर्हि एषः पदार्थः कुत्र अस्ति? समानाधिकरणम् अस्ति तस्य, पृथ्वीत्वस्य समानाधिकरणम् अस्ति चेत् एतस्य पदार्थस्य. तर्हि एषः पदार्थः कुत्र अस्ति? पृथिव्यां.
पृथिव्याम् अस्ति.
हा, नाम
गन्धः अपि पृथिव्याम् अस्ति.
हा हा, गन्धः गन्धः अस्ति. किन्तु एतावत् अस्माकं
समानाधिकरणम् इत्यस्य अर्थः कृतवन्तः.
एतत् सर्वम् अस्ति वा इति द्रष्टुम् इच्छामः. किन्तु समानाधिकरणं गन्धः इति नास्ति इदानीं. तत्र तत्र कुत् किं वर्तते?
पृथ्वी अस्ति.
समानाधिकरणं पृथ्व्यां, तत्र पृथ्वीत्वं पृथिव्यां वर्तते. पृथ्वीत्वं पृथिव्यां वर्तते. तत्र समानाधिकरण अत्यन्ताभावः इति एतावत् गच्छामश्चेत् तर्हि अर्थः कः? पृथ्वीत्वसमानाधिकरण अत्यन्ताभावः इति तस्य अर्थः कः?
अत्यन्ताभावः
कीदृशः अत्यन्ताभावः? केवलम् एतद् भागं स्वीकरोतु महोदय. तस्य अर्थः एव भवान् पठन् अस्ति अतः. किन्तु किं पठन् अस्ति इति यदि जानाति चेत् सुलभः भवति. अतः नाम एतस्य एतावत् यदस्ति, एतस्य अर्थः एव भवान् पठन् अस्ति. तर्हि आरम्भतः पठतु पृथ्वीत्वस्य अधिकरणम् इति. हा,
पृथ्वीत्वस्य अधिकरणं पृथिवी तदवृत्तिः इत्युक्ते पृथिवी त्व अधिकरणवृत्तिः यः अत्यन्ताभावः
नाम
नाम पृथिव्या विद्यमानः यः कोऽपि अत्यन्ताभावः अस्माभिः स्वीकर्तव्यम्
स्वीकर्तव्यः. नाम किम् अस्ति, कथं
पृथिव्यां यः कोऽपि अभावः अस्ति, अत्यन्ताभावः अस्ति, सः स्वीकर् तं स्वीकर्तव्यम्.
हा, किमर्थं किमर्थं नाम कीदृशः अभावः?
अत्यन्ताभावः.
अत्यन्ताभावः कीदृशः? पृथ्वीत्वसमानाधिकरण अत्यन्ताभावः अस्ति. नाम पृथ्वीत्वं यत्र अस्ति तत्र एव एषः अत्यन्ताभावः अपि अस्ति. स्वशब्दैः वदतु महोदय, तत्र पृथ्वीत्वसमानाधिकरण अत्यन्ताभावः नाम किम्
इत्युक्ते यः भावः पृथ्वीत्वमस्ति तत् अभावः यत्र पृथ्वीत्वमस्ति तत्र यः सः अभावः अस्ति, एतादृशः अभावं स्वीकर्तव्यः.
अभावः एव पृथ्वीत्वसमानाधिकरण अत्यन्ताभावः.
तत् अभाव तत् अभावः अपि तत् अधिकरणे
अवगच्छति वा इति मम अवगच्छति वा यत् भवान् पठितवान्?
समानाधिकरणं तावत् अवगच्छामि, अत्यन्ताभावः मीन्स् यः अभावः अपि तत् अधिकरणे पृथिव्याम् अस्ति इति अर्थः.
समीचीनं. हा, अतः पृथ्वीत्व समानाधिकरण अत्यन्ताभावः नाम यः अभावः, यः अत्यन्ताभावः पृथिव्याम् अस्ति.
पृथिव्याम् अस्ति.
तत्र पृथ्वीत्व अधिकरणवृत्तिः इति किं भवति? तत्र वृत्तिः अपि अत्यन्ताभावः, तयोः मध्ये कः सम्बन्धः?
समानाधिकरणम् अस्ति तत्र अपि
न न वृत्तिः इत्युक्ते कः अस्ति वृत्तिः तत्र अस्तु अन्य कोऽपि तस्य विवरणं कुर्यात् महोदय किन्तु भवान् अग्रे पठ अग्रे पठतु महोदय हा नाम पृथिव्यां विद्यमानः एतावत् भवान् तु अवगच्छति खलु नाम तत्र पृथिव्याम् अस्ति एषः अत्यन्तभावः अस्तु अग्रे
नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्तभावः अस्माभिः स्वीकर्तव्यः
अग्रे
पृथिव्यां विद्यमानः अत्यन्तभावः इति अनेन गन्धाभावं स्वीकर्तुं न शक्नुमः तत् अतिरिच्य गन्धाभावः स्वीकर्तुं गन्धः अस्ति परन्तु तादृश अभाव अन्त्यतभाव स्वीकर्तव्यं यस्य अधिकरणं पृथिवी अस्ति सो गन्धाभावस्य अधिकरणं पृथिवी नास्ति प्रायः
किमर्थम्
अवगच्छामि
किन्तु वदतु तत्र गन्धाभावः किमर्थं न स्वीकर्तुं शक्नुमः
यतोहि गन्धः पृथिव्याम् अस्ति गन्धाभावः नास्ति
उत्तमं समीचीनं महोदय गन्धः पृथिव्याम् एव वर्तते खलु अतः गन्धः
अतः गन्धाभावः स्वीकर्तुं न शक्नुमः
गन्धाभावः तर्हि पृथिव्यां भवति वा
न भवति तत्र समानाधिकरणं न भवति
गन्धाभावस्य अधिकरणं कदापि पृथ्वी न भवितुम् अर्हति खलु इति वक्तव्यं अस्तु अग्रे अतः गन्धाभावः न स्वीकर्तुं शक्नुमः किन्तु अन्यत् किमपि
तद् अतिरिच्य किमपि स्वीकर्तव्यं
तद्भिन्न तद्भिन्न अन्यः कोऽपि अभावः
स्वीकर्तव्यः
अग्रे
तर्हि शीतस्पर्श अभावं स्वीकुर्मः
तर्हि शीतस्पर्श अभावः तत्र पृथिव्याम् अस्ति वा शीतस्पर्शः कुत्र वर्तते
जले वर्तते
शीतस्पर्शवान् जलं अस्तु समीचीनं तर्हि शीतस्पर्श जले वर्तते अन्यत्र कुत्रापि वर्तते वा शीतस्पर्शः
न अन्यत्र कुत्रापि न वर्तते अतः पृथिव्याम् शीतस्पर्श अभावः वर्तते
उत्तमं अस्तु अतः तद् उदाहरणत्वेन स्वीकुर्मः शीतस्पर्श अभावः इति स्वीकुर्मः समीचीनम् अग्रे
अत्र पृथिवीत्व अधिकरणवृत्तिः अत्यन्तभावः इति अनेन शीतस्पर्श अत्यन्तभावः भवतु अतः पृथिव्याम् यः समानाधिकरणम् अस्ति अत्यन्तभावः अस्ति यस्ति शीतस्पर्श अत्यन्तभावः अस्ति तस्य अधिकरणमपि पृथिवी अस्ति
अस्तु तर्हि शीतस्पर्श इति स्वीकुर्मः उदाहरणम् अग्रे
तत् प्रतियोगित्वं
तद् अप्रतियोगित्वम् अत्र
तद् अप्रतियोगित्वम्
अग्रे पठतु महोदय
इत्युक्ते शीतस्पर्श अत्यन्तभावस्य अप्रतियोगित्वं तत् च गन्धे अस्ति
अग्रेपि पठतु एकवारं तदनन्तरं
यतोहि शीतस्पर्श अत्यन्तभावस्य प्रतियोगी भवति शीतस्पर्शः न तु गन्धः अतः गन्धः शीतस्पर्श अत्यन्तभावस्य अप्रतियोगी भवति
अप्रतियोगी इति हलन्तपदं विसर्गः नास्ति तत्र
तर्हि अप्रतियोगी इति एव प्रतियोगी अप्रतियोगी प्रतियोगिः हरिः वत् नास्ति विसर्गः नास्ति तत्र तर्हि अस्तु
तर्हि गन्धे
महोदय तत्र यत् पठितवान् तद् एकवारं प्रतिपादयतु किम् अवगतम्
तत्र शीतस्पर्श अत्यन्तभावस्य अप्रतियोगित्वं गन्धे वर्तते
हा किमर्थम्
यतोहि शीतस्पर्श अत्यन्तभावस्य प्रतियोगी भवति शीतस्पर्शः
प्रतियोगी नाम किमस्ति प्रतियोगी नाम किम्
प्रतियोगी नाम शीतस्पर्शः अस्ति तस्य अभावः
अभावः अस्ति प्रतियोगी इत्युक्ते नाम घटः अस्ति घटाभावः अस्ति तयोः मध्ये कीदृशसम्बन्धः अस्ति
घटः अस्ति तत्र घटाभावः अस्ति तत्र प्रतियोगी अनुयोगी अभावः अस्ति सः अनुयोगी भवति
उत्तमं महोदय किन्तु तत्र उत्तमं तत्र अभावः अनियोगी भवति घटः प्रतियोगी भवति प्रतियोगिता अनियोगिता इत्युक्ते तयोः मध्ये यः विरोधभावः अस्ति खलु एकः
विरोधः
न भवति खलु विरोधः एव तत्र वयं तत्र प्रतियोगिता अनियोगिता इति वदामः तर्हि उत्तमं तर्हि घटः एव प्रतियोगी नाम घटस्य आनयनेन घटाभावः नश्यति तर्हि शीतस्पर्शस्य अत्यन्ताभावः केन नश्यति
शीतस्पर्श अत्यन्तभावः
घटस्य अभावः घटस्य आनयनेन नश्यति शीतस्पर्श अभावस्य अभावः केन नश्यति तर्हि
शीतस्पर्शः आनयनेन
गन्धस्य आनयनेन तत्र भवति वा
न
तर्हि गन्धः प्रतियोगी वा शीतस्पर्शस्य अत्यन्ताभावस्य गन्धः शीतस्पर्शस्य अत्यन्ताभावस्य प्रतियोगी अस्ति वा
किञ्चित् क्लेशः भवति
महोदय तर्हि अस्तु 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 अन्य कोऽपि पठेत् महोदय समीचीनमेव अस्तु धन्यवादः अस्तु अग्रे तत्र तर्हि तत्र शोभा भगिनी तत्र किञ्चित् वदति वा
आं महोदय तत्र कुतः आरभ्य वदनीयं महोदय
अत्र खण्डशः इति आरभ्य कुर्मः भगिनि नाम तत्र खण्डशः पश्येम इति अत्र यत्र अस्ति अत्र
तत्र खण्डशः पश्येम पृथ्वीत्वस्य अधिकरणं पृथ्वी तद्वृत्तिः इत्युक्ते इदानीं तत्र पृथ्वीत्व अधिकरणम् इति ज्ञातवन्तः पृथ्वीत्व अधिकरणवृत्तिः इति इत्युक्ते तत्र इदानीं अत्यन्त अभावः इत्यस्य विषयः यत् पृथ्व्यां वर्तते इति पृथ्व्यां विद्यमानः यः कोऽपि अत्यन्त अभावः आनेतव्यं तत्र इदानीं तद् गन्धः तु न भवति
एव तत्र विवक्षितः अर्थः नाम अर्थः कः पृथ्वीत्वाधिकरणवृत्तिः नाम अत्यन्ताभावः सः अत्यन्ताभावः पृथिव्याम् अस्ति पृथिव्यां विद्यमानः अस्ति
अस्ति पृथ्वीत्वाधिकरणवृत्तिः इत्युक्ते पृथ्वीत्वाधिकरणवृत्तिः इत्युक्ते पृथ्वी त्वस्य अधिकरणे एव वर्तते यत्किमपि आनेतव्यं तद् इदानीम्
अपि तत्र पृथ्वीत्व अधिकरणवृत्तिः इति पदं यत् अस्ति अत्र अत्र एतस्ति पृथ्वीत्व अधिकरणवृत्तिः यः अत्यन्ताभावः इत्यनेन वयं किम् अवगच्छामः तत्र अत्यन्ताभावः अपि पृथ्वीत्व अधिकरणवृत्तिः तयोर्मध्ये कः सम्बन्धः
यः अत्यन्त अभावः विशेषविशेषणं भवति वा
हा कीदृश अत्यन्त अभावः
इत्युक्ते पृथ्वीत्व अधिकरणवृत्तिः तादृशः अत्यन्त अभावः
हा वृत्तिः नाम वर्तते तत्र
वर्तते तादृशी यत् पृथ्वीत्वे अधिकरण पृथ्वीत्वस्य अधिकरणे भवेत्
हा इति तयोः अतः समीचीनं तयोः मध्ये तत्र विशेषणविशेष्यभावः इति अस्ति अतः हा तादृश अत्यन्तभावः स्वीकर्तव्यः
स्वीकर्तव्यम्
अतः एतावत् इदानीम् आगतवन्तः नाम पृथ्वीत्वसमानाधिकरण अत्यन्ताभावः इति तावत्पर्यन्तम् आगतवन्तः
अग्रे अस्ति अप्रतियोगी अपि भवति सः
छन्दः
अत्यन्त अभावः स्वीकर्तव्यः अस्ति अस्माभिः सः अप्रतियोगी
तस्य अप्रतियोगी तस्य अप्रतियोगी भवति गन्धः
अप्रतियोगी भवति गन्धः यतोहि अभावः तु तस्य भवेत् यः नास्ति तत्र न वर्तते
तत्र गन्धः पर्यन्तं गच्छामः इदानीं तत्र एतावत् पृथिव्यां वर्तते एषः अत्यन्ताभावः इदानीम् अग्रे
हा अत्यन्ताभावः इदानीं तत्र गन्धः
इदानीं तत्र पृथिव्यां विद्यमानः इति आरभ्य
तत्र वा अहं मम करपत्रात् पठामि एकक्षणं तद् वृत्तिः तत्र खलु महोदय
अस्तु भगिनि हा
तद्वृत्तिः पृथ्वीत्वाधिकरणवृत्तिः यः अत्यन्ताभावः नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्ताभावः अस्माभिः स्वीकर्तव्यः इदानीम् अस्माभिः तादृशः अत्यन्त अभावः स्वीकर्तव्यं यद् पृथिव्यां विद्यमानः भवेत् इत्युक्ते पृथिव्यां विद्यमानः भवति इत्युक्ते पृथिव्याः अधिकरणे भवति इति पृथ्वीत्वस्य अधिकरणे भवति
अधिकरणे अस्ति समीचीनं
अधिकरणे भवेत् तादृशः अपि च अग्रे वदामि वा
इदानीं
विद्यमानः पृथिव्यां विद्यमानः अत्यन्त अभावः इत्यनेन गन्धाभावं स्वीकर्तुं न शक्नुमः यतोहि इदानीम् अस्माकं विषयमस्ति पृथिव्यां विद्यमानः अत्यन्त अभावः इति उक्तत्वात् तत्र गन्धाभावः न भवति यतोहि गन्धः तु पृथिव्यां समानाधिकरणरूपेण भवति पृथ्वीत्वम् अपि च गन्धः इति अतः तं स्वीकृत्य गन्धाभावः इति वक्तुं न शक्नुमः यतोहि तस्य अभावः नितरां नास्ति पृथिव्याम् अतः तत्तु न शक्यं तद् अतिरिच्य अतः तं विहाय किमपि स्वीकर्तव्यम् अन्यत् किमपि स्वीकर्तुं शक्नुमः यतोहि तत् किं वदामः तत्र यतोहि गन्धाभावं तु न भवति तदतिरिच्य किमपि स्वीकर्तव्यं तर्हि शीतस्पर्शाभावं स्वीकुर्मः शीतस्पर्शाभावं किमर्थं स्वीकर्तुं शक्नुमः इत्युक्ते शीतस्पर्श इति तु जले अस्ति इति जानीमः अतः केवलं जले अस्ति अन्यत्र कुत्रापि न भवितुम् अर्हति अतः तत् स्वीकर्तुं शक्नुमः अतः इदानीं पृथ्वीत्वाधिकरणवृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्श अत्यन्ताभावः भवतु इति तत्र भवतु इति इत्युक्ते पृथ्वी
वृत्तिः इत्यनेन उदाहरणरूपेण स्वीकुर्मः.
तत्र पृथ्वीत्व अधिकरणवृत्तिः इत्युक्ते पुनः तत्र अधिकरणरूपेण वर्तते इति पृथ्वीत्वे
पृथिव्यां
तादृश अत्यन्त अभावः भूत्वा शीतस्पर्श इति स्वीकर्तुं शक्नुमः.
नाम पृथिव्यां पृथिव्यां सर्वे पदार्थाः पृथिव्यां वर्तते वा?
सर्वे पदार्थाः न वर्तन्ते. अतः
अतः तत्र तेषाम् अनेकेनां तत्र अनेके पदार्थाः सन्ति ये पृथिव्यां न वर्तन्ते इति
तेषां
अभावः अभावाः तु पृथिव्यां वर्तन्ते खलु. तर्हि
हा ये पदार्थाः न वर्तन्ते तेषाम् अभावः अभावाः वर्तन्ते इति वक्तुं शक्नुमः.
अतः शीतस्पर्शः न भवति इति कृत्वा तस्य अभावः पृथिव्यां वर्तते इति उदाहरणत्वेन शीतस्पर्श अभावः स्वीकुर्मः.
आम् तद् प्रतियोगित्वम् इति तत्र अप्रतियोगित्वं क्षम्यतां तत् अप्रतियोगित्वम् इत्युक्ते शीतस्पर्श अत्यन्ताभावः भवतु इति उक्तत्वात् उक्त्वा अग्रे तद् अप्रतियोगित्वम् इति भवति उक्तम्. तत्र अप्रतियोगित्वम् इत्युक्ते प्रतियोगित्वं नास्ति तस्मिन् इति इत्युक्ते तत्र गन्धस्य अभावः अस्ति चेत् गन्धः एव प्रतियोगी भवति. इदानीं तत्र शीतस्पर्श इत्यस्य अत्यन्त अभावः स्वीकृतः अतः तत् अप्रतियोगित्वम् इत्युक्ते शीतस्पर्शात्यन्तभावस्य अप्रतियोगित्वं तत् च गन्धे अस्ति. गन्धे अस्ति अस्तु
गन्धे किम् अस्ति अतः
अतः शीतस्पर्श अत्यन्त अभावस्य इत्युक्ते शीतस्पर्श अत्यन्त अभावः कुत्र अस्ति इत्युक्ते पृथ्व्याम् अस्ति तस्य अप्रतियोगित्वं गन्धे अस्ति. यतोहि शीतस्पर्शः गन्धस्य अभावस्य विरोधं न करोति इति वा?
अग्रे पठतु तत्र नाम प्रतियोगितः भवति नाम घटाभावस्य उदाहरणं स्वीकरोतु.
घटाभावस्य विरोधः इत्युक्ते घटाभावस्य अनुयोगी तु घटः एव भवति.
न घटाभावे
प्रतियोगी क्षम्यतां घटाभावस्य प्रतियोगी घटः एव भवति.
नाम यस्य आनयनेन घटाभावः नश्यति सः प्रतियोगी सः प्रतियोगी इति
वदामः.
तर्हि तत्र
स्पर्शस्य आनयनेन गन्धाभावः तु नश्यति.
न न विपरीततया
तत्र किम् एकक्षणं महोदय इत्युक्ते शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगित्वं तत् च गन्धे अस्ति इति. यतोहि शीतस्पर्श अत्यन्त अभावस्य प्रतियोगी भवति शीतस्पर्शः. अस्तु तत्र अप्रतियोगित्वं गन्धे अस्ति इति इत्युक्ते शीतस्पर्शस्य अभावस्य विरोधः गन्धस्य आनयनेन न भवति. अतः
तत्र नाम शीतस्पर्शस्य अत्यन्त अभावः अस्ति पृथिव्यां खलु.
आम्
तत्र अभावः एषः अभावः कस्य आनयनेन नश्यति?
घटाभावस्पर्शस्य आनयनेन एव नश्यति.
नश्यति तर्हि शीतस्पर्शः एव प्रतियोगी खलु.
सत्यम्
एतस्य अभावस्य प्रतियोगी अस्ति शीतस्पर्शः. तर्हि गन्धः प्रतियोगी वा?
गन्धः प्रतियोगी न भवितुम् अर्हति.
एतस्य अभावस्य प्रतियोगी गन्धः नास्ति खलु.
आम्
तर्हि गन्धः प्रतियोगी नास्ति इत्युक्ते गन्धः एतस्य अभावस्य अप्रतियोगी खलु. तर्हि गन्धः एतस्य अभावस्य अप्रतियोगी इत्युक्ते गन्धे किम् अस्ति तर्हि?
गन्धे शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगित्वम् अस्ति.
अप्रतियोगित्वम्
अस्ति
गन्धे अस्ति.
इत्युक्ते गन्धस्य आनयनेन तस्य अभावः न नश्यति इत्यनेन गन्धे शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगित्वम् अस्ति, न तु प्रतियोगित्वम् अप्रतियोगित्वम् अस्ति
इति अस्ति इति अस्ति. अतः तत्र किं भवति, तत्र अभावः यदस्ति, अभावः यत् पृथिव्याम् अस्ति तस्य अभावस्य प्रतियोगी तत्तु गन्धः भवति, गन्धः न भवति इति खलु. अप्रतियोगित्वं गन्धे अस्ति नाम गन्धः प्रतियोगी नास्ति, अभावस्य प्रतियोगी गन्धः नास्ति.
अतः तत्र महोदय तदेव गन्धे अन्येषां पदार्थानाम् अप्रतियोगित्वम् अस्ति इति वक्तुं शक्नुमः इत्युक्ते तत्र यत् अन्यत् स्वीकुर्मः चेत् तत्रापि इदानीं शीतस्पर्श इति स्वीकृतम्, अन्यत् किमपि स्वीकुर्मः चेत् यत् पृथ्व्यां नास्ति तत्रापि तदेव वक्तुं शक्नुमः, प्रतिवारं तदेव वक्तुं शक्नुमः गन्धे तस्य अप्रतियोगित्वम् अस्ति
इति. नाम
इति
घटे घटे पटाभावस्य अप्रतियोगित्वं वर्तते, पटे गन्धाभावस्य अप्रतियोगित्वं वर्तते. अतः अत्र तु ये यः अभावः पृथिव्यां वर्तते तस्य अभावस्य अप्रतियोगित्वं गन्धे वर्तते इति इति तत्र न्यायरीति न्यायशैली नाम व्यापकः इत्युक्ते पृथ्वीत्वसमानाधिकरण अत्यन्त अभाव अप्रतियोगी भवति गन्धः. नाम गन्धः पृथ्वीत्वव्यापकः इति पूर्वम् उक्तवन्तः, तस्य अर्थः कः? पृथ्वीत्वसमानाधिकरण अत्यन्त अभाव अप्रतियोगी भवति गन्धः
गन्धः इति.
नाम
गन्धः यः पदार्थः
पदार्थः पृथिव्यां नास्ति खलु, तस्य तत्र तस्य अप्रतियोगी भवति गन्धः. नाम गन्धः तादृशः गन्धस्य अत्यन्तः भावः तत्र पृथिवीत्वसमानाधिकरणः अत्यन्तः भावः नास्ति, पृथिव्यां नास्ति गन्ध अभावः इति तावदेव अस्ति. किन्तु न्यायशैली एतादृशी अस्ति,
पृथिवीत्वसमानाधिकरण अत्यन्त अभाव अप्रतियोगी गन्धः भवति.
अतः व्यापकः इति यत् विवरणम् अपरिचित अर्थः वयम् उक्तवन्तः पठितवन्तः, सः अर्थः अत्र सङ्गच्छते, नाम सम्यक् अस्ति अत्र. यतोहि यः कोऽपि पृथ्वीत्वसमानाधिकरण अत्यन्तः भावः यः कोऽपि भवेत्, नाम यः कोऽपि अत्यन्तः भावः पृथिव्यां वर्तते तस्य तस्य अभावस्य प्रतियोगी कदापि गन्धः न भवति इति वयम् अवगतवन्तः. अस्तु, समीचीनं, धन्यवादः भगिनि. अस्तु,
इदानीम्
अग्रे सरामः. तर्हि तत्र अग्रे पद्मा भगिनी अग्रे पठति वा? अस्तु अस्तु भगिनि, अस्तु अस्तु, चिन्ता मास्तु. अस्तु, तर्हि तत्र अग्रे तत्र उषा भगिनी अग्रे पठति वा?
अस्तु महोदय. आहत्य पृथ्वीत्व अधिकरणवृत्ति, पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं गन्धे आनेतव्यम्. अस्तु, यतोहि पृथ्वीत्वव्यापकत्वं गन्धे, पृथ्वीत्व अधिकरणवृत्तिः अत्यन्त अभावः इत्यनेन शीतस्पर्शस्य अत्यन्त अभावः स्वीकर्तुं शक्यते, स्नेहस्य अत्यन्त अभावः स्वीकर्तुं शक्यते, शब्दस्य अत्यन्त अभावः स्वीकर्तुं शक्यते, एवं पृथिव्यां ये ये गुणाः न सन्ति तेषाम् अत्यन्त अभावं स्वीकर्तुं शक्नुमः, सम्प्रति शीतस्पर्शस्य अत्यन्त अभावं स्वीकुर्मः, तस्य प्रतियोगी शीतस्पर्शः, प्रतियोगित्वं च शीतस्पर्शे, अप्रतियोगित्वं गन्धे भवति। तर्हि अप्रतियोगित्वं कुत्र कुत्र भवति इति चेत्, यः गुणः पृथिव्यां भवितुं सर्वथा न अर्हति तत्सम्बन्धस्य अत्यन्त अभावस्य अप्रतियोगित्वं गन्धे भवति। अतः अनेन गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् आनीतम्। एतत् पूर्वं वयं दृष्टवन्तः, द सेम् थिङ्ग् महोदय, भगिनी अपि उक्तवती शीतस्पर्श अपि च अन्येषां गुणानाम्।
किन्तु किन्तु किञ्चित्
आहत्य पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं गन्धे आनेतव्यं। वयं दृष्टवन्तः व्यापक इत्यस्य द्वितीय अर्थः, व्यापक इत्यस्य द्वितीय अर्थः एव वयं दृष्टवन्तः अत्र। समानादिक गन्धः पृथ्वीत्वव्यापकः इति कृते द्वितीय अर्थः कथम् इत्युक्ते, इति पृथ्वीत्वसमानाधिकरण अत्यन्त अभाव अप्रतियोगी इति वयं दृष्टवन्तः। अत्र पृथ्वीत्व आहत्य पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं गन्धे आनेतव्यं। गन्धः अधिकरणं पृथ्वी, पृथ्वीत्व अधिकरणमपि पृथ्वी। सो गन्धे गन्धः पृथ्वी पृथिव्याम् अस्ति इत्यनेन गन्धस्य आनयनेन
भगिनी न न न न अतः एव तत्र पृथ्वीत्व अधिकरणवृत्तिः इति, तत्र गन्धः पृथिव्यां वर्तते इति कोऽपि सम्बन्धः नास्ति। अतः तत्र पृथ्वीत्व अधिकरणवृत्तिः अत्यन्ताभावः एव तत्र पृथ्वीत्व अधिकरणे वर्तते इति उक्तम्। तत्र गन्धस्य विषयः, गन्धः पृथिव्यां वर्तते इति न उक्तम्, सः विषयः नास्ति अत्र। अतः तत्र
यतोहि पृथ्वीत्वव्यापकत्वं गन्धे, पृथ्वीत्वव्यापकत्वं गन्धे,
गन्धे वर्तते इति वक्तुं,
गन्धे वर्तते
इति अस्माकम् आशयः। तर्हि वृत्तिव्यापकत्वं गन्धे वर्तते नाम पृथ्वीत्व अधिकरणवृत्तिः अत्यन्ताभावः अप्रतियोगित्वं गन्धे
गन्धे वर्तते।
नाम अत्र किम् अस्ति, पृथ्वीत्व अधिकरणम् इति तत्र षष्टि पृथ्वीत्वस्य अधिकरणम्। तदनन्तरं वृत्तिः नाम अधिकरणे वृत्तिः न, किन्तु अधिकरणवृत्तिः तत्र बहुव्रीहि, तद् भवति अत्यन्ताभावः। अत्यन्ताभावः कीदृशः, तत्र यः पृथ्वीत्व अधिकरणे वर्तते, अतः वृत्तिः इति अत्यन्ताभावस्य पुनः तत्र अत्यन्ताभावस्य अप्रतियोगित्वम्, अतः तत्र सम्बन्धस्य परम्परा वर्तते। तत्र अन्ते गन्धः अस्ति किन्तु आदौ गन्धः नास्ति।
पृथ्वीत्वस्य अधिकरण इति अत्र षष्ठी, पृथ्वीत्व अधिकरणस्य वृत्ति इत्यस्य कृते यस्य वृत्ति बहुव्रीहि अत्र, यः
पृथ्वी
वर्तते, ओके, तत् तत् अधिकरण अत्यन्त अभावः ओके
तादृश अत्यन्त अभावः इति अर्थः सः कः वृत्तिः कः सः अत्यन्त अभावः कीदृशः पृथ्वीत्व अधिकरणवृत्तिः अत्यन्त अभावः नाम पृथ्वीत्व अधिकरणे विद्यमानः अत्यन्त
अभावः अस्तु तत् तस्य अप्रतियोगित्वं गन्धे वर्तते
इति साधनीयम् अस्माभिः अतः इदानीम् अग्रे
पृथ्वीत्व अधिकरणवृत्तिः पृथ्वीत्व अधिकरणवृत्तिः अत्यन्त अभावः इत्यनेन शीतस्पर्शस्य अत्यन्त अभावः स्वीकर्तुं शक्यते अत्यन्त अभावः यतो गन्धः न गृहीतव्यं शीतस्पर्शः शीतस्पर्श आनयनेन पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभावः नश्यति नास्ति
न शीतस्पर्शस्य नाम पृथ्वीत्व अधिकरणवृत्तिः नाम पृथ्वी पृथ्वीत्व अधिकरणे अत्र अधिकरणमस्ति पृथ्वी तस्मिन् विद्यमानः अत्यन्त अभावः तर्हि शीतस्पर्शस्य अत्यन्त अभावः तत्र किमर्थं स्वीकर्तुं शक्यते
शीतस्पर्शस्य शीतस्पर्शं जले वर्तते महोदय शीतस्पर्शस्य आनयनेन जलस्य अभावः नश्यति
न भगिनि तत्र जलाभावस्य
अत्र विषयः नास्ति
जलाभावः जलस्य आनयनेन नश्यति
जल अभावः जलस्य आनयनेन नश्यति शीतस्पर्शस्य आनयनेन शीतस्पर्श अभावः नश्यति
शीतस्पर्शस्य आनयन किन्तु शीतस्पर्शः कुत्र वर्तते
शीतस्पर्शः जले वर्तते
पृथिव्यां वर्तते वा
नास्ति
तर्हि शीतस्पर्शः पृथिव्यां नास्ति चेत् किम् अस्ति पृथिव्यां शीतस्पर्शस्य
अभावः अस्ति अत्यन्त अभावः
तर्हि अभावस्य समानाधिकरणमस्ति खलु पृथ्वीत्वस्य पृथ्वीत्वम् अपि शीतस्पर्श अभावः पृथिव्यां भवतः खलु तर्हि इति एव तत्र किमपि नास्ति शीतस्पर्शस्य अभावः पृथिव्यां वर्तते यः अत्यन्त अभावः पृथ्वीत्व अधिकरणे वर्तते सः स्वीकर्तव्यः अतः शीतस्पर्शस्य अभावः स्वीकर्तुं शक्नुमः खलु तर्हि अत्र अतः शीतस्पर्शस्य अत्यन्त अभावः स्वीकर्तुं शक्यते
एवमेव स्नेहस्य अत्यन्त अभावः स्वीकर्तुं
स्नेहः इति एतावत् वयं न दृष्टवन्तः किन्तु सः अपि अन्यतमगुणः सः अपि तत्र पृथिव्यां न वर्तते इति
वर्तते इत्यनेन स्वीकर्तुं शक्यते
शक्यते अग्रे
शब्दस्य अत्यन्त अभावः स्वीकर्तुं शक्यते
किमर्थं
शब्दस्य अत्यन्त अभावः शब्दम् आकाशे वर्तते शब्दस्य आकाशस्य
अधिकरणम् आकाशे अतः शब्दः पृथिव्यां न वर्तते अतः शब्दस्य अत्यन्त अभावः अपि पृथिव्यां वर्तते इति कृत्वा सः अपि
स्वीकर्तुं शक्यते एवं पृथिव्यां ये ये गुणाः न सन्ति तेषाम् अत्यन्त अभावं स्वीकर्तुं शक्नुमः सम्प्रति
किं किं स्वीकर्तुं शक्नुमः तर्हि
शीतस्पर्श अपि च स्नेह इति गुणः अपि च शब्दम् इति गुणः ये ये गुणाः न सन्ति
केवलं त्रयगुणः वा न यः कोऽपि गुणः गुणः
पृथिव्यां नास्ति
तेषाम् अत्यन्त अभावं
स्वीकर्तुं
शक्नुमः अग्रे
सम्प्रति शीतस्पर्शस्य अत्यन्त अभावं स्वीकुर्मः तस्य प्रतियोगी शीतस्पर्शः प्रतियोगित्वं च शीतस्पर्शे
समीचीनं वा अत्यन्त अभाव तस्य
अत्यन्त
तस्य इत्युक्ते कस्य तस्य प्रतियोगी तस्य प्रतियोगी इत्युक्ते कस्य प्रतियोगी
अत्यन्त अभावस्य
हा अत्यन्त अभावस्य
प्रतियोगी शीतस्पर्शः प्रतियोगित्वं च शीतस्पर्शे वर्तते
न न प्रतियोगी शीतस्पर्शः इत्युक्ते प्रतियोगित्वं शीतस्पर्शे वर्तते
वर्तते
त्वम् इति भाववाचकः प्रतियोगी शीतस्पर्श इत्युक्ते प्रतियोगित्वं शीतस्पर्शे
स्पर्शे वर्तते तद्धर्म अस्ति अप्रतियोगित्वं गन्धे भवति तर्हि अप्रतियोगित्वं कुत्र कुत्र भवति इति चेत् यः गुणः पृथिव्यां भवितुं सर्वदा न अर्हति तत् सम्बन्धस्य अत्यन्त अभावस्य अप्रतियोगित्वं गन्धे भवति
तत्र तत् सम्बद्धस्य इत्युक्ते सम्बन्धः ययोः मध्ये सम्बन्धः भवति तौ सम्बद्धौ
अत्यन्त अभावस्य अप्रतियोगित्वं गन्धे भवति अप्रतियोगित्वं कुत्र कुत्र न भवति इति चेत् यः गुणः पृथिव्यां भवितुं न अर्हति पृथिव्यां नास्ति तत् सम्बन्धस्य अत्यन्त अभावस्य
तत्
गुणस्य सम्बन्धस्य तत् गुणस्य यत् पृथिव्यां न भवितुम् अर्हति तत् गुणस्य सम्बन्धस्य अत्यन्त अभावस्य अप्रतियोगित्वं गन्धे भवति यतोहि गन्धः पृथिव्याम् अस्ति इत्यनेन अप्रतियोगित्वं गन्धे भवति
समीचीनं भगिनि केवलं तत्र तत् सम्बद्धस्य इति
तत् सम्बन्धस्य
न न सम्बन्धः इति नास्ति सम्बद्धस्य
सम्बद्धस्य
नकारः
सम्बद्धस्य अस्तु अस्तु नकारः नास्ति आम् महोदय तत् सम्बद्धस्य
नाम गुणः अस्ति गुणाभावः अस्ति खलु तयोः मध्ये सम्बन्धः अस्ति खलु अतः तौ सम्बद्धौ
द्वयोः मध्ये अस्तु
द्वयोः मध्ये सम्बन्धः अस्ति गुणः गुणसम्बद्धस्य अत्यन्ताभावस्य तत् सम्बद्धस्य इत्युक्ते गुणसम्बद्धस्य अत्यन्ताभावस्य
गुणसम्बद्धस्य
अत्यन्ताभावः
सम्बद्धस्य अत्यन्ताभावः
नाम यदि वयं स्नेह इति वदामः तत् सम्बद्धस्य अत्यन्ताभावः नाम स्नेह अत्यन्ताभावः
शब्दः इति चेत् शब्दः इति गुणः शब्द तत् सम्बद्धस्य इत्यनेन शब्द अभावः
इति भवति तत्र ययोः मध्ये सम्बन्धः वर्तते तौ सम्बद्धौ
तौ तौ गुणः अपि च गुण अभावः सम्बद्धः इति
सम्बद्धौ इति
सम्बन्धौ इति
सम्बद्धौ
सम्बद्धौ
इति एव अस्तु समीचीनं तर्हि
अतः अनेन गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी योगित्वम् आनीतम् अतः अनेन इत्युक्ते गन्धे कः वर्तते इति चेत् पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं भवति आनीतम् इति
आनीतम् आनेतव्यम् आसीत् पूर्वम् इदानीम् आनीतम्
नाम
कृतवन्तः नाम किं कृतवन्तः तर्हि यः कोऽपि गुणः अथवा यः कोऽपि पदार्थः पृथिव्यां वर्तते इति नास्ति यः कोऽपि पदार्थः पृथिव्यां नास्ति नाम तस्य अत्यन्ताभावः पृथिव्यां वर्तते सः अत्यन्ताभावः कुत्र वर्तते? पृथिव्यां वर्तते. तर्हि सः अत्यन्ताभावः पृथ्वीत्व अधिकरणवृत्तिः अस्ति.
अपि च
एतादृश अत्यन्ताभावः कोऽपि भवेत् तस्य भावस्य प्रतियोगी गन्धः कदापि नास्ति.
गन्धे अप्रतियोगित्वम्
गन्धे अप्रतियोगित्वमेव अस्ति. पूर्वं वयं केवलं तत्र तत्र वयं शीतस्पर्शस्य उदाहरणं स्वीकृत्य साधितवन्तः. तस्य शीतस्पर्श तु पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभावस्य उदाहरणमस्ति. शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगित्वं गन्धे आनीतमासीत्. इदानीं वयं किं वदामः? अस्तु अस्तु, तथैव सर्वमपि कर्तुं
शक्नुमः.
अतः केवलम् उदाहरणे सर्वं सम्यक् अभवत्, तथैव अन्यैः गुणैः सह अपि वयं कर्तुं शक्नुमः. तथैव तेषां
पृथिव्यां
भावस्य
पृथिव्यां ये गुणाः न सन्ति तत् गुणस्य अत्यन्त अभावं
अभावं स्वीकर्तुं शक्नुमः
इति
वर्त. समीचीनम्. अतः तत्र सर्वं तत्र पूर्वं केवलं स्नेह तत्र शीतस्पर्शस्य उदाहरणमासीत्. अस्मिन् परिच्छेदे सर्वं कृतम् इति. अतः तत्र सम्यक् रीत्या जानीमः तत्र गन्धः तत्र पृथ्वीत्वव्यापकः अस्ति इति. अस्तु, समीचीनं,
धन्यवादः.
व्याप्य व्यापकभावः इति. अस्तु, समीचीनम्. अस्तु, अग्रे अशोक महोदय. धन्यवादः भगिनि.
एवमेव तद्व्याप्यत्वम् अपि वक्तुं शक्यते. गन्धः पृथिवीत्वव्याप्यः इत्युक्ते पृथिवीत्व अभाववत् अवृत्तित्वम् आनेतव्यम्. पृथिवीत्वस्य यः अभावः पृथिवीत्व अभावः तद्वत् तद्वान् तद्वति. अत्र तद्वत् इत्युक्ते जलम्, पृथिवीत्व अभाववत् जलम्. तद्वृत्तिः इति सप्तमी तत्पुरुषः, तस्मिन् अवृत्ति तत् इति जलं, जले गन्धः अवृत्तिः, यतोहि जले गन्धः नास्ति, गन्धो नास्ति. अतः तद्वृत्तित्वं गन्धे अस्ति. तद् अवृत्तित्वं गन्धे अस्ति. पृथ्वीत्व अभाववत् जल अवृत्तित्वं गन्धे अस्ति.
हा महोदय, तत्र प्रायशः भवान् न आसीत् गतवर्गे इति कृत्वा तत्र वयं तत्र हा तत्र गतवर्गे वयं पठितवन्तः तत्र व्याप्य इति तत्र परिचित अर्थः अस्ति. व्याप्यम् इत्युक्ते परिचित अर्थः अस्ति न्यूनदेशवृत्ति. अपरिचित अर्थः अस्ति तद् अभाववत् अवृत्तित्वम् इति.
महोदय,
भवान् श्रुतवान्, जानामि. केवलं तत्र अन्येषां कृते अपि एकवारं भवतु इति कृत्वा. अस्तु, हा इदानीं एवमेव
तद्व्याप्यत्वम् अपि वक्तुं शक्यते. पूर्वं व्यापकस्य द्वितीय अर्थं पश्यामः. इदानीं व्याप्यत्व द्वितीय अर्थं पश्यामः. अतः गन्धः पृथिवीत्वव्याप्यः, गन्धः पृथिवीत्वव्याप्यः इति वक्तुम् इच्छामः द्वितीयार्थे. इत्युक्ते पृथ्वीत्व अभाववत् अवृत्तित्वम् आनेतव्यम् नाम द्वितीयार्थः नाम गन्धपृथित्व व्याप्यः नाम पृथ्वीत्व अभाववत् अवृत्तित्वम् इति.
अवृत्तित्वम् इति एव तत्र व्याप्यत्वस्य अर्थः आसीत्. अतः पृथ्वीत्व अभाववत् अवृत्तित्वम् आनेतव्यं नाम गन्धे एतदस्ति. अतः गन्धे एतद् आनीतव्यम्
पृथ्वीत्वस्य यः अभावः पृथ्वीत्व अभावः तद्वत् तद्वान् तद्वति नपुंसक पृथ्वीत्वस्य अभावः नाम पृथ्वीत्व अभावः तद् अपुंसकलिङ्गे तद् तद्वत् अस्ति पुल्लिङ्गे तद्वान् स्त्रीलिङ्गे तद्वति इति यत्र पृथ्वीत्व अभावः अस्ति
नाम वत् इत्युक्ते तत्र मतुप् वत् इत्युक्ते तत्र आश्रयः तस्य आश्रयः पृथ्वीत्व अभावस्य आश्रयः तर्हि पृथ्वीत्व अभावस्य आश्रयः किं भवति
उदाहरणार्थं जलम् इति उक्तम्
उदाहरणार्थं जलम् इति स्वीकृतं यतोहि पृथ्वीत्व अभावः जले वर्तते अस्तु
अतः जलं पृथ्वीत्व अभाववत् तद् वृत्तिः इति सप्तमी तत्पुरुषः समासः
तत्र महोदय तद्वृत्तिः न
तद् अवृत्तिः तदवृत्तिः इति तद् इति तत्पुरुष सप्तमी तत्पुरुष अतः तस्मिन् इति अर्थः तस्मिन् अवृत्तिः इति तत् इति जलं जले गन्धः अवृत्तिः यतोहि जले गन्धः नास्ति जले गन्धः नास्ति अतः गन्धस्य अवृत्तिः अस्ति जले अतः तद् अवृत्तित्वं गन्धे अस्ति पृथ्वीत्व अभावत् जल अवृत्तत्व अवृत्तित्वं गन्धे अस्ति अतः गन्धः व्याप्यः इति
तथैव अग्रे अपि पठतु महोदय तर्हि
आहत्य गन्धे पृथ्वीत्व अभाववत् अवृत्तित्वम् अस्ति एवं च पृथ्वीत्व अधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वम् अपि अस्ति गन्धे अतः गन्धे पृथ्वीत्व अव्याप्यत्वम् अपि अस्ति पृथ्वीत्व व्यापकत्वम् अपि अस्ति एवं पृथ्वीत्वे गन्धव्याप्यत्वम् अपि अस्ति गन्धव्यापकत्वम् अपि अस्ति अनेन व्याप्यत्वे सति व्यापकत्वम् इति पूर्वं गन्धव्याप्य इति पश्यामः इदानीं गन्धः व्यापकः अपि अस्ति अतः अन्यून अतिरिक्त वृत्तित्वम् इति पश्यामः आहत्य गन्धे पृथ्वीत्व अभाववत् अवृत्तित्वम् अस्ति पूर्वं पश्यामः पूर्व पेराग्राफ् मध्ये पश्यामः खण्डे पश्यामः गन्धे पृथ्वीत्व अभाववत् अवृत्तम् अस्ति इति एवं च पृथ्वीत्व अधिकरणवृत्ति अत्यन्ताभाव अतियोगित्वम् अपि अस्ति गन्धे इति पूर्वं
तस्मात् प्राक् दृष्टवान्
पश्यामः तदपि द्वितीय अर्थः व्यापकस्य द्वितीय अर्थः अतः गन्धे प्रथमवाक्यात् गन्धे गन्धः व्यापकः व्याप्य इति जानीमः द्वितीयवाक्ये द्वितीयवाक्यात् पृथिवी गन्धः व्यापकम् अपि जानीमः एवं पृथ्वीत्वे गन्धव्याप्यत्वम् अपि अस्ति गन्धव्यापकत्वम् अपि अस्ति अनेन व्यापत्वे सति व्यापकत्वम् इति पूर्वं पश्यामः अन्यून अनतिरिक्त वृत्ति नाम व्याप्यत्वे सति व्यापकत्वम् इति तदेव एतद् उदाहरणेन वक्तव्यम्
समीचीनं महोदय तर्हि तत्र वयं तत्र गन्धे पृथ्वीत्व अभाववत् अवृत्तित्वम् अस्ति नाम तत्र व्याप्यम् इति तस्य द्वितीय अर्थः अपि सङ्गच्छते तर्हि गन्धः पृथ्वीत्वव्याप्यः इति अवगच्छामः अपि तत्र पृथिव्यां तत्र गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वमपि अस्ति इति पूर्वम् अवगतवन्तः तर्हि गन्धः पृथ्वीत्वव्यापकः अस्ति इति अपि जानीमः अतः गन्धे पृथ्वीत्वव्याप्यत्वमपि अस्ति पृथ्वीत्वव्यापकत्वम् अपि अस्ति इदानीम् अन्ते किं वदति एवमेव
आचार्य द्वितीयं भागं न अवगतं मया पृथ्वीत्वा भाववत् जलवृत्तित्वं गन्धे अस्ति अस्य अवगमनं सम्यक् न
कुत्र भगिनि कुत्र
पृथ्वीत्वा भाववत् जलवृत्तित्वं गन्धे अस्ति द्वितीयम् अंशं
जल अवृत्तित्वं भगिनि जल अवृत्तित्वम् अवृत्तित्वं
जले गन्धः नास्ति खलु कस्य पृथ्वीत्वाभावत् जलवृत्तित्वं तस्य अवगमनं न अभवत् अन्तिमवाक्यस्य
जलवृत्तित्वं
जल अवृत्तित्वं
अवृत्तित्वं नाम वृत्तित्वं नाम वृत्तित्वं नाम वर्तते
वर्तते वर्तते
अवृत्तित्वं नाम
न वर्तते
तर्हि जले न वर्तते खलु गन्धः
पृथ्वीत्वाभाववत् जल पृथ्वीत्वाभाववत् जल अवृत्तित्वं गन्धे
अस्तु तर्हि एकं कुर्मः भगिनि प्रश्नः तु समीचीनः एव तत्र अस्तु तर्हि तत्र अन्य कोऽपि वदेत् तदा एव वयं तत्र अस्तु तर्हि तत्र नीता भगिनी तत्र एवमेव तद् व्याप्यत्वम् इति वक्तुम् अपि शक्यते
एवमेव तद् व्याप्यत्वम् अपि वक्तुं शक्यते इत्युक्ते यद् वयं व्यापकत्वविषये दृष्टवन्तः तथैव व्याप्यवृत्तिकथं तस्मिन् विषये अपि वक्तुं शक्यते गन्धः पृथ्वीत्वव्याप्यः तत् व्यापकत्वं वयं दृष्टवन्तः अत्र इदानीं गन्धः पृथ्वीत्वव्याप्यः इत्युक्ते पृथ्वीत्व अभाववत् अवृत्तित्व आनेतव्यम् अत्र पृथ्वीत्व अभाववत् अवृत्तित्वम् पृथ्वीत्व अभाववत् अवृत्तित्वम् इति आनेतव्यं पृथ्वीत्व अभावस्य यत् अवृत्तित्वं यत् कोऽपि अभावः पृथिव्यां इत्युक्ते पृथ्वीत्व अभाववत् अवृत्तित्वम् आनेतव्यं पृथ्वीत्वस्य यः अभावः पृथ्वीत्व अभावः पृथ्वीत्वस्य यः अभावः पृथ्वीत्व अभावः तद्वत् तद्वान् तद्वती अत्र तद्वत् इत्युक्ते जलं पृथ्वीत्व अभाववत् जलम् इतपर्यन्तं वदामि वा
अस्तु अस्तु भगिनि तर्हि तत्र अत्र किं दत्तमस्ति तत्र पृथ्वीत्व अभाववत् अवृत्तित्वम् इति अस्ति खलु तर्हि पृथ्वीत्व अभाववत् इत्युक्ते कः अर्थः पृथ्वीत्व अभावः इत्युक्ते किमस्ति
पृथ्वीत्व अभाव इत्युक्ते यत् अभावः पृथिव्यां वर्तते
न न पृथ्वीत्वस्य अभावः
पृथ्वीत्वस्य अभावः पृथ्वीत्व अभावः इत्युक्ते पृथ्वीत्वस्य अभावः
इति एव अत्र अर्थः खलु पृथ्वीत्वस्य यः अभावः सः एव पृथ्वीत्व अभावः
पृथ्वीत्व अभाव तत्र मतु प्रत्यय तत्र आश्रयः तत् पृथ्वीत्व अभावस्य आश्रयः पृथिव्यां पृथ्वीत्व अभाववत् इति नपुंसकलिङ्गे
तर्हि पृथ्वीत्व अभावस्य आश्रयः किं भवितुम् अर्हति
पृथ्वीत्वस्य अभावस्य आश्रयः इत्युक्ते पृथ्वी पृथिव्यां यत् अभावः तत् आश्रयः
न न पृथ्वीत्व पृथिव्यां यः अभावः नास्ति पृथ्वीत्वस्य अभावः कस्य अभावः
पृथ्वीत्वस्य अभावः
पृथ्वीत्व अभावः पृथ्वीं विहाय अन्यत् किमपि भवितुम् अर्हति पृथ्वीत्वाभावः पृथ्वीं विहाय अन्यत् किमपि
पृथ्वी नास्ति पृथ्वीत्व अभावः पृथ्वी नास्ति पृथ्वीत्व अभावः अस्ति
अन्य किमपि पृथ्वीं विहाय यथा अत्र जलं स्वीकृतं
भृणले भगिनि तत्र पृथ्वी भिन्नं पृथ्वीत्वं भिन्नं खलु तर्हि पृथ्वीत्व अभावः कुत्र वर्तते इत्युक्ते भवती किं वदति पृथ्वीत्वं कुत्र वर्तते
पृथ्वीत्वं
पृथ्व्यां वर्तते तर्हि पृथ्वीत्वस्य अभावः कुत्र वर्तते
अहं वदामि वा महोदय अहं वदामि तत् पृथ्वीत्वं पृथिव्यां वर्तते पृथ्वीत्वस्य अभावः पृथिव्यां न वर्तते पृथ्वीत्वस्य अभावः अन्य कोऽपि स्वीकुर्मः जले अपि वर्तते
पृथ्वीं विहाय
पृथ्वीं
विहाय अन्यत्र
अन्य कोऽपि अधिकरणं यदि वयं स्वीकुर्मः तत् पृथ्वीत्वस्य अभावः वर्तते अत्र उदाहरणार्थं दत्तमस्ति तद्वत् इत्युक्ते जलं तद्वत् इति मतु प्रत्ययेन युक्तं नपुंसकलिङ्गे तत् पृथिवीत्वस्य पृथिवीत्व अभावः तद्वत् जलम् इति जले पृथिवीत्वस्य अभावः वर्तते पृथ्वीत्व अभाववत् जलम् जल इति जलम् इति पृथ्वीत्व अभावयुक्त अस्ति इति नपुंसकलिङ्गे तद् वृत्तिः इति सप्तमी
तत्त्वम्
हा क्षम्यतां क्षम्यतां तत् अवृत्तिः इति सप्तमी तत्पुरुष तत् अवृत्तिः इति किं तत् अस्ति सप्तमी तस्मिन् अवृत्तिः पृथ्वीत्व अभाववत् जलं वृत्ति इत्युक्ते वर्तते पृथ्वीत्व अभाववत् जलं यत्र वर्तते तस्मिन् अवृत्तिः तस्मिन् अवृत्तिः तत् अवृत्तिः इति तस्मिन् अवृत्तिः तत् इति जलं हा अत्र जले पृथ्वीत्वं पृथ्वीत्वस्य अभावः वर्तते इत्युक्ते जलम् इति पृथ्वीत्व अभाववत् मतु प्रत्ययस्य योजनेन तस्य अवृत्ति तत् अवृत्तिः तत् अवृत्तिः कुत्र वर्तते तत् अवृत्तिः तत् युक्तजलं पृथ्वीत्व अभाववत् जलं तस्मिन् गन्धस्य अवृत्तिः वर्तते एवं तत् इति जलं जले गन्धः अवृत्तिः यतोहि जले गन्धः नास्ति इति अतः तत् अवृत्तित्वं गन्धे अस्ति पृथ्वीत्व अभाववत् यज्जलं तस्मिन् गन्धस्य अवृत्तित्वं वर्तते
पुनः अन्तिमवाक्यं भगिनि पृथ्वीत्व अभाव
जले गन्धः नास्ति अतः जले गन्धस्य अवृत्तिः पृथ्वीवत् अभाववत् जलं तस्मिन् गन्धस्य अवृत्ति
तत्र गन्धे अवृत्तिः तत्र गन्धे अवृत्तित्वम् अस्ति
गन्धे अवृत्तित्वम् अस्ति
जलस्य अवृत्तित्वम् अस्ति जलावृत्तित्वं गन्धे अस्ति. जलं कीदृशम् अस्ति?
पृथ्वीत्वं
अस्ति. अतः समीचीनं भगिनि.
पृथ्वीत्व अभाववत् जल अवृत्तित्वं गन्धे अस्ति. इदानीं तस्य महोदय तत् स्थापितवान् आसीत् डबल् नेगेशन् इति भवति. यत्र पृथ्वीत्व अभाववत् जलम् अवृत्तित्वं गन्धे इति.
नाम पृथ्वीत्वं पृथ्वीत्वस्य अभावः खलु, तत्र पृथ्वीत्वस्य अभावः
पृथ्वीत्वस्य अभावः जले वर्तते. जलं पृथ्वीत्व अभाववत् अस्ति. पृथ्वीत्व अभाववत् जलं तस्मिन् गन्धस्य अवृत्तित्वम् अस्ति. एवम्
इति अस्ति. नाम पृथ्वीत्व अभावः यस्मिन् अधिकरणे वर्तते तस्मिन् अधिकरणे गन्धः न वर्तते.
न वर्तते गन्ध नास्ति इति.
हा, यत्र पृथ्वीत्वस्य अभावः वर्तते तत्र गन्धः न वर्तते.
न वर्तते.
हा, नाम यत्र यत्र पृथ्वीत्वं नास्ति तत्र तत्र गन्धः अपि नास्ति खलु.
तत्र अन्यून अनतिरिक्त
इति यदि द्वयमपि कुर्मः तर्हि अत्र अन्यून अनतिरिक्त भावः आगच्छति. समीचीनम्. अस्तु अस्तु, तर्हि तत्र मृल्लिनी भगिनी प्रश्नः इदानीमपि अस्ति वा?
आम्, तस्य वाक्यस्य अवगमनं जातं. पृथ्वीत्वाभावत् जलं कीदृशं जलं? पृथ्वीत्वाभाववत् जलं तस्मिन् गन्धस्य अवृत्तित्वम्
इति अस्ति. उत्तमं भगिनि. अस्तु, समीचीनम्. अस्तु, तर्हि भवती एव इदानीं तत्र अत्र तत्र अन्ते तत्र अशोकमहोदयेन पठितमस्ति, किन्तु तत्र एवम् इति, अतः एकवारम् एतत् परिच्छेदम् एकवारं पठतु भगिनि. आहत्य
गन्धे पृथ्वीत्वाभाववत् अवृत्तित्वम् अस्ति. एवञ्च पृथ्वीत्वाधिकरण वृत्ति अत्यन्ताभाव अप्रतियोगित्वम् अपि अस्ति गन्धे. अतः इदानीम् अत्र द्वयमपि भवति. अतः गन्धे पृथ्वीत्वव्यापकत्वम् अपि अस्ति. पृथ्वीत्वव्यापकत्वम् अपि अस्ति. समयं वाक्यं पृथ्वीत्वव्यापकत्वम् अपि अस्ति. पृथ्वीत्वव्यापक द्विवारं समानेव वाक्यम् अस्ति वा महोदय?
ककारः नास्ति खलु प्रथमे वाक्ये? व्याप्यत्वम्.
आं, व्याप्यत्वं. आमाम्. अतः गन्धे पृथ्वीत्वव्याप्यत्वम् अपि अस्ति. पृथ्वीत्वव्यापकत्वम् अपि अस्ति. एवं पृथ्वीत्वे गन्धव्यापकव्याप्यत्वम् अपि अस्ति. गन्धव्यापकत्वम् अपि अस्ति. अनेन व्याप्यत्वे सति व्यापकत्वम् इति अर्थः बोधितः.
तर्हि अथ तत्र एवं च नाम तत्र एतावत् वयं किं कृतवन्तः? गन्धः पृथ्वीत्वव्याप्यः इति साधितवन्तः खलु. अपि गन्धः पृथ्वीत्वव्यापकः इति अपि साधितवन्तः वा?
आमां, साधितं.
हा, साधितवन्तः. अस्तु, इदानीं तत्र किं पृथ्वीत्वं गन्धव्याप्यम् अस्ति वा? तद् भिन्नं वा? तद् यदि तत्र पृथ्वीत्वं गन्धव्याप्यम् इति वक्तुम् इच्छामः तर्हि तत्र विवरणं किं भवति? एतावत् वयं गन्धः पृथ्वीत्व व्याप्यं गन्धः पृथ्वीत्व व्यापकः इति गन्धः पृथ्वीत्व व्याप्यः गन्धः पृथ्वीत्व व्यापकः इति साधितवन्तः खलु इदानीं विपरीततया तत्र अन्तिमवाक्यं किमस्ति एवम् इति आरभ्य
पृथ्वीत्वे गन्धव्यापकत्वं व्याप्यत्वम् अपि अस्ति गन्धव्यापकत्वम् अपि अस्ति तर्हि अत्र भाव अस्ति पृथ्वीत्वे गन्धव्याप्यत्वं तथा गन्धव्यापकत्वम् अपि अस्ति
पूर्वं वाक्यं पठतु अतः इति अतः
अतः गन्धे पृथ्वीव्याप्यत्वम् अपि अस्ति पृथ्वी व्यापकत्वमपि
पृथ्वीत्वव्यापकत्वमपि
पृथ्वीत्वव्यापकत्वमपि अस्ति
गन्धे द्वयमपि अस्ति इदानीम् एवं पृथ्वीत्वे इति तद्वाक्यं पठतु
एवं पृथ्वीत्वे गन्धव्याप्यत्वम् अपि अस्ति गन्धव्यापकत्वम् अपि अस्ति
नाम पृथ्वीत्वे गन्धव्याप्यत्वम् इत्युक्ते कः अर्थः
अत्र सप्तमी बोधितं
न पृथ्वी भवती पठितवती तत्र व्याप्यत्वम् इति तस्य अर्थः कः
आमाम्
इति अर्थः अपरिचितः अर्थः कः
व्याप्यत्वम् अर्थः खलु पृथ्वीत्वाभाववत् जलपृथ्वीत्वम्
अवृत्तित्वं हा पृथ्वीत्वाभाववत् अवृत्तित्वम् इति व्याप्यत्वं खलु व्याप्यत्वं खलु
व्याप्यत्वं
कस्य व्याप्यत्वं तत्र गन्धः पृथ्वीत्व अभाववत् अवृत्तित्वम् इत्युक्ते गन्धः पृथिवी व्याप्यं व्याप्यः अस्ति इति अर्थः इदानीं वयं किं वक्तुम् इच्छामः पृथ्वी अपि गन्धव्याप्यम् अस्ति इति यदि वक्तुम् इच्छामः तर्हि तत्र किं भवति अस्मिन् विवरणे किञ्चित् तत्र अथवा किञ्चित् तत्र परिवर्तनं करणीयं वा पृथ्वीत्वे गन्धव्याप्यत्वम् अस्ति इति यदि वक्तुम् इच्छामः तर्हि अन्य कोऽपि वदति वा तत्र
तत्पूर्वं यत् कृतं तत् वाक्यं खलु
किन्तु पृथ्वीत्वे पृथ्वीत्व अभाववत् अवृत्तित्वम् इति नास्ति तद् न वक्तुं शक्नुमः खलु
अन्य कोऽपि वदेत्
अन्य कोऽपि वदति वा तत्र गन्धः पृथ्वीत्व अभाववत् अवृत्ति गन्धे पृथ्वीत्व अभाववत् अवृत्तित्वम् इत्युक्ते गन्धः पृथ्वीत्वव्याप्यः अस्ति इति अर्थः इदानीं पृथ्वीत्वं गन्धव्याप्यम् इति यदि वक्तुम् इच्छामः तर्हि तत्र एतादृशविवरणं किं भवति नरसिंहमहोदय वदति वा तेन समापयामः
गन्धाभाववत् अवृत्तित्वम् इति भवति वा महोदय
हा गन्धाभाववत् अवृत्तित्वम् इति भवति समीचीनं तथैव तत्र यदि पृथ्वीत्वं गन्धव्यापकम् अस्ति इति तदा किं भवति अत्र
अभवत् अवृत्तित्वं
नाम व्यापकं गन्धव्यापकम् अस्ति पृथ्वीत्वम् इति यदि वक्तुम् इच्छामः तर्हि अस्मिन् विवरणे किं भवति यत्र पृथ्वीत्वम् अस्ति तत्र
समानाधिकरण अत्यन्त अभाव अप्रतियोगी
पृथ्वीत्वम् इति भवति समीचीनं हा तथैव अस्ति उत्तमं हा अस्तु अतः तत्र व्याप्यत्वे सति व्यापकत्वं नाम व्याप्यत्वम् अपि अस्ति व्यापकत्वम् अपि अस्ति अपि तत्र विपरीततया अपि वक्तुं शक्नुमः गन्धः पृथ्वीत्वव्याप्यः गन्धः पृथ्वीत्वव्यापकः नाम व्याप्यत्वे सति व्यापकत्वम् अपि विपरीततया अपि वक्तुं शक्नुमः पृथ्वीत्वं व्याप्यमस्ति गन्धव्याप्यमस्ति पृथ्वीत्वं गन्धव्यापकम् अपि अस्ति अतः तत्र एतत् सर्वं व्याप्यत्वे सति व्यापकत्वम् इति यदि पठामः एतत् सर्वं मनसि भवेत् इति एतावत् कृतम् अग्रिमे सप्ताहे तत्र रूपस्य अव्याप्यवृत्तित्वम् अथवा व्याप्यवृत्तित्वम् इति पठित्वा एतस्य विषयस्य समापनं भवति तदनन्तरं समाप्तिः भवति तदनन्तरं पुनः विद्याधरी गच्छामः तर्हि अस्तु समीचीनमस्ति धन्यवादः नमस्कारः अग्रिमे वर्गे मिलामः नमस्कारः
धन्यवादः
नमस्कारः
धन्यवादः नमस्कारः
धन्यवादः